अकल्मषः सत्यहेतुः सत्यगः सत्यगोचरः सत्यगर्भः सत्यरूपः सत्यः सत्यपराक्रमः अञ्जना प्राणलिङ्गश्च वायुवंशोद्भवः सुधीः भद्ररूपो रुद्ररूपः सुरूपश्चित्ररूपधृत् मैनाकवन्दितः सूक्ष्मदर्शनो विजयो जयः क्रान्तदिङ्मण्डलो रुद्रः प्रकटीकृतविक्रमः कम्बुकण्ठप्रसन्नात्मा ह्रस्वनासो वृकोधरः लम्बोष्टः कुण्डली चित्रमाली योगविदाम्बरः विपश्चित्कविरानन्दविग्रहोऽनन्यसनशासनः फल्गुनीसूनुरव्यग्रो योगात्मा योगतत्परः योगवेद्यो योगकर्ता योगयो निर्दिगम्बरः अकारादिक्षकारान्तवर्गनिर्मितविग्रहः उलूखमुखसिंहः संस्तुतः परमेश्वरः श्लिष्टजङ्गश्लिष्टजानुश्लिष्टपाणिशिखाधरः सुशर्मामितशर्मा च नारायणपरायणः जिष्णुर्भविष्णोरो जिष्णुर्घसिष्णुस्ताणुरेव च हरिरुद्रानुकृदृक्षकम्पनो भूमिकम्पन गुणप्रवाहसूत्रात्मवीतरागस्तुतिप्रियः नागकन्याभयध्वंसी रुक्मभर्णः कपालभृत् अनाकुलो भवोपायो अनपायो वेदपारगः अक्षरः पुरुषो लोकनाथो रक्षप्रबुद्धुडः अष्टाङ्गयोगफलभुक् सत्यसन्धः पुरुष्टतः श्मशानस्थाननिलयः प्रेतविद्रावणक्षमः पञ्चाक्षरः परः पञ्चमातृकोरञ्जनध्वजः योगिनी बृन्दवन्द्यश्च शत्रुघ्नोऽनन्दविक्रमः ब्रह्मचारीन्द्रियरिपुः धृतदण्डो दशात्मकः अप्रपञ्चः सदाचारशूरसेनविदारकः वृद्धप्रमोदश्चानन्दः सप्तजिह्वापतिर्धरः नवद्वारपुराधारप्रत्यग्रः सामगायकः षट्चक्रधामः स्वर्लोको भयहृन्मानदो मदः सर्ववश्यकरः शक्तिर्नेता चानन्तमङ्गलः अष्टमूर्तिधरो नेताभिरूपस्वरसुन्दरः धूमकेतुर्महाकेतुः सत्यकेतुर्महारथः नन्दिप्रियस्वतन्त्रश्च मेखली समरप्रियः लोहाङ्गत् सर्वविद्धन्वी षट्कलः शर्व ईश्वरः फलभुक्फलहस्तश्च सर्वकर्मफलप्रदः धर्माध्यक्षो धर्मफलो धर्मो धर्मप्रदोऽर्थदः पञ्चविंशतितत्त्वज्ञस्तारकः ब्रह्मतत्परः त्रिमार्गवसतिर्भीमः सर्वदुःखनिबर्हणः ऊर्जस्वानिर्गळशूली माली गर्भो निशाचरः रक्ताम्बरधरो रक्तो रक्तमाला विभूषणः वनमाली शुभाङ्गश्च श्वेत श्वेताम्बरो युवा जयो जय परिवारः सहस्रवदनः कविः शाकिनी ढाकिनी यक्ष रक्षो भूतौघभञ्जनः सद्यो जातः कामगतिः ज्ञानमूर्तिर्यशस्करः शम्भुतेजः सार्वभौमो विष्णुभक्तः प्लवङ्गमः चतुर्नवतिमन्त्रज्ञः पौलस्त्यबलदर्पः सर्वलक्ष्मीप्रदः श्रीमानङ्गदप्रियकडितः स्मृतिर्बीजम् सुरेशानः संसारभयनाशनः उत्तमः श्रीपरिवारः श्रीभूदुर्गा च कामधृक् सदा गतिर्मातरिश्वा रामपादाधषट्पदः नीलप्रियो नीलवर्णो नीलवर्णप्रियः सुहृत् रामदूतो लोकबन्धुरन्तरात्मा मनोरमः श्रीरामध्यानकृद्वीरः सदा किं पुरुषस्तुतः रामकार्यान्तरङ्गश्च शुद्धिर्गतिरनामयः पुण्यश्लोकः परानन्दः परेश प्रियसारथिः लोकस्वामी मुक्तिदाता सर्वकारणकारणः महाबलो महावीरः पारावारगतिर्गुरुः समस्तलोकसाक्षी च समस्तसुरवन्दितः सीता समेत श्रीरामपादसेवाधुरन्धरः श्री आञ्जनेय सहस्रनाम स्तोत्रं सम्पूर्णम्। अस्य श्रीमदाञ्जनेय स्तोत्रमहामन्त्रस्य श्रीरामचन्द्र ऋषिः वीरहनुमान् देवता अनुष्टुप् छन्दः श्रीरामदूतप्रीत्यर्थे जपे विनियोगः ध्यानम् हनुमानञ्जनासूनुः वायुपुत्रो महाबलः रामेष्टपल्गुणः सकः पिङ्गाक्षोमितविक्रमः उदधिक्रमणश्चैव सीताशोकविनाशनः लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पः एवं द्वादश नामानि कपीन्द्रस्य महात्मनः स्वापकाले पठे नित्यं यात्राकाले विशेषतः तस्य मृत्युभयं नास्ति सर्वत्र विजयी भवेत् स्फाटिकाभं स्वर्णकान्तिं द्विभुजं च कृताञ्जलिं कुन्दलद्वय संशोभिमुकाम्भोजं हरिं भजे आञ्जनेयमतिपालाननं काञ्चनाद्रिकमनीय विग्रहम् पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिं बाष्पवारि परिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् विजयं लभते सत्यं परं सौख्यमवाप्नुयात् भूतप्रेतपिशाचाश्च ब्रह्मराक्षसदर्शने सिंहव्याघ्रभयप्राप्ते शत्रुशस्त्रास्त्रपञ्जरे दुःखे महारणे चैव पिशाचग्रहपातके शतवारं पठे नित्यं मण्डलं भक्तितत्परः सर्वसौख्यमवाप्नोति त्रिसन्ध्यं रामपोषितः अपराजितपिङ्गाक्ष नमस्ते रामपूजित प्रस्थानं च करिष्यामि सिद्धिर्भवतु मे सदा आयुः प्रज्ञा यशो लक्ष्मी श्रद्धा पुत्रा सुशीलता आरोग्यं देह सौख्यं च कपिनाथ नमोऽस्तु ते दीने मयि दयां कृत्वा मम दुःखं विनाशय ऐश्वर्यं पुत्रलाभं च लक्ष्मीं देहि सदा प्रभो तत्पादपङ्कजद्वन्द्वं विना नान्यं भजाम्यहम् न्यूनातिरिक्तं यत्किञ्चित् तत्सर्वं क्षन्तुमर्हसि माता त्वं च पिता त्वं च भ्राता त्वं च प्रभुर्मम त्वमेव शरणं प्राप्तं रक्ष मां करुणानिधे नानाविघ्नांश्च रोगांश्च नाशय त्वं सदा मम। त्रिलक्षं हनुमन्नाम योजपेद्भक्तितत्परः। राजद्वारे महाघोरे भयं नैवारि सङ्कटे। ब्रह्म राक्षस भूतानां भयलेशो न विद्यते। श्रीरामचन्द्रार्पण।